इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य कुवैत नगरे कुवैत नेतृभिः सह वार्तालापं करिष्यति। श्रीमोदिने बयान पैलेस इत्यत्र औपचारिक रूपेण गार्ड ऑफ ऑनर इति सम्मान रक्षकं प्रदत्तं भविष्यति। तदनन्तरं सः कुवैतस्य अमीरेण कुवैतस्य युवराजेन च सह पृथक् पृथक् मेलनम् अपि करिष्यति। प्रधानमन्त्री श्रीमोदी कुवैतस्य प्रधानमन्त्रिणा सह प्रतिनिधिमण्डलस्तरस्य वार्ताम् अपि करिष्यति। प्रधानमन्त्री पश्चिम एशिया राष्ट्रस्य द्विदिवसीय यात्रायां कुवैत देशं सम्प्राप्तवान् अस्ति, यत् त्रिचत्वारिंशत् वर्षेषु भारतीय प्रधानमन्त्रिणः कुवैत देशस्य प्रथमा यात्रा अभवत्। सः कुवैतस्य अमीरस्य शेख मेशल अल अहमद अल जवर अल सबाह इत्यस्य आमन्त्रणे कुवैतस्य यात्रायाम् अस्ति। ह्यः कुवैतनगरे श्रीमोदी हाला मोदी इति विशिष्ट कार्यक्रमे भारतीय प्रवासिनः विशाल समागमं सम्बोधितवान्। सः कुवैतस्य विकासाय भारत कुवैत सम्बन्धानां पोषणाय च भारतीय समुदायस्य परिश्रमस्य उपलब्धेः योगदानस्य च प्रशंसाम् अकरोत्। प्रधानमन्त्री श्रीमोदी आगामि मासे भारतीय प्रवासी दिवसे महाकुम्भमेलापके च भागं ग्रहीतुं प्रवासी सदस्यान् आमन्त्रितवान्। गृहमन्त्रिणा अमितशाहेन उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना पूर्वोत्तरीय क्षेत्रं विश्वस्य केन्द्रं विनिर्मितम्। अगरतलायां ह्यः पूर्वोत्तर परिषदः द्विसप्ततितमीये पूर्णसत्रं सम्बोधयता तेनोक्तं यत् विगतानि दशवर्षाणि पूर्वोत्तरीयक्षेत्राणां कृते महति महत्वपूर्णानि आसन्। तेन भणितं यत् केन्द्रसर्वकारः निवेशकान् पूर्वोत्तरक्षेत्रेषु विनिवेशाय प्रोत्साहयति। श्रीशाहेनोक्तं यत् पूर्वं पूर्वोत्तरस्य केवलं चर्चा एव प्रचलति स्म। अधुना प्रधानमन्त्रिणा क्षेत्रस्यास्य विकासाय निष्पक्षतया बहवः प्रयासाः विहिताः। एतेन क्षेत्राणि एतानि महत्वपूर्णानि सञ्जातानि। केन्द्रीयगृहमन्त्रिणोक्तं यत् आगामिषु दिवसेषु पूर्वोत्तरस्य सर्वाणि राज्यानि समृद्धानि भविष्यन्ति। तेन एतदपि भणितं यत् प्रधानमन्त्री नरेन्द्रमोदी तदीय भारतीय जनता पार्टीति दलं च पूर्वोत्तरम् अशेषदेशस्य समक्षम् आनेष्यति। श्रीशाहेन प्रतिपादितं यत् क्षेत्रेऽस्मिन् उग्रवादी गतिविधयः अपि अपचिताः जाताः, मानवजीवनस्य क्षतिः अपि न्यूनीभूता। जर्मनीदेशस्य मैग्डेबर्ग नगरे पञ्चजनाः मृताः, द्विशततोऽप्यधिकाः जनाः च घातिताः। आक्रमणस्यास्य भारतेन नन्दा कृता। विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् क्रिस्मस आपणे भयावहं निरर्थकं च आक्रमणम् इत्यपि वर्णितम्। मैग्डेबर्ग क्रिस्मस आपणे जाते आक्रमणे सप्तभारतीयाः अपि घातिताः। अद्य वडोदरानगरस्य कोटाम्बी क्रीडाङ्गणे आईसीसी चैंपियनशिप श्रृंखलायाः प्रथमे द्वन्द्वे भारतीय महिला क्रिकेट दलं वेस्टइंडीज दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भ अपराह्ने सार्धैकवादने भविष्यति। प्रियाः श्रोतारः, संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृतसाप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने सार्धैकवादनतः भविष्यति। कृपया शृण्वन्तु इति वार्ताः।